अस्ते आरम्भं कुर्मः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। हलुसन्धिषु गतपाठे लास्ट् क्लास् ङमूढागमः सुत्वं षुटुत्वं दृष्टम् अस्माभिः। इदानीम् अनुनासिकसन्धेः विषये पश्यामः। अनुनासिकसन्धिविधायकं सूत्रं यरः अनुनासिके अनुनासिकः वा। यरः यरः इति षष्ठी, अनुनासिके सप्तमी, अनुनासिकः प्रथमा वा मीन्स् ऑप्शनलि, द रूल् इस् ऑप्शनल्। पदान्तस्य इति पदम् अनुवृत्तम्, अनुवृत्तिः अस्ति। एवञ्च पदान्तस्य यरः, पदान्तस्य यरः। सो बोत् आर् इन् षष्ठी विभक्ति, पदान्तस्य इस् आल्सो षष्ठी, यरः इस् आल्सो इन् षष्ठी विभक्ति। देयरफोर् पदान्तस्य यरः, द यर् विच् इस् एट् द एण्ड् आफ् पद, पदान्तस्य यरः अनुनासिके परे। अनुनासिकवर्णाः, अनुनासिक लेटर्स् ज्ञामगणन लैक् दट्। सो अनुनासिके परे अनुनासिकः वा, अनुनासिकः भवति वा विकल्पेन ऑप्शनलि। उदाहरणार्थं टेकन् सम्, usually we will find these letters, therefore I have taken this, but R, though R includes many other letters, since the examples with these letters are famous, I have taken these letters. Ja, ba, ga, da, za, padante, if padante, at the end of pada, if these letters are there, any R letter, here I have taken only ja, ba, ga, da, za. Then yaraha anunasike pare, where it is followed by anunasika letters, the fifth letter of each gana here, anunasikah va bhavati, the fifth letter of that particular gana replaces these letters optionally. Padantasya yaraha अनुनासिके परे अनुनासिकः वा विकल्पेन भवति। उदाहरणार्थं मद् निवासः, अत्र दिस् एक्साम्पल् दकारः अस्ति, इदं मद् इति अत्र पदम् इस् समास, फोर् मद् इस् अ पद, मद् एण्ड् इट् इस् फालोड् बै नकार, दट् इस् एन् अनुनासिक लेटर्। यरः अनुनासिके परे अनुनासिकः भवति विकल्पेन दकारस्य स्थाने, सिन्स् दकार इस् इन् तवर्ग, the last letter of tavarga replaces dakara, ataha man nivasah, so man nivasah, since this anunasika is optional, mad nivasah is also possible, two forms, man nivasah and mad nivasah. Vag नियमः। Actually, it was the shabda. Actually, it was chakaranta, vach shabda. But then cha changed to ka. So it becomes vak niyama. Then we studied chalam jashonte previously. By that rule, ka becomes ga. Now this rule is applicable. वाग नियम अनुनासिकः परे अस्ति अतः गकारस्य स्थाने अनुनासिकः भवति वांग तस्य वर्गस्य अन्तिमः वर्णः लास्ट लेटर ऑफ दैट वर्ग सो वांग नियमः अथवा वाग नियमः ऑप्शनल Then षड् मुखः अत्र डकारः अस्ति पदान्ते डकारः वर्तते तस्मात् परम् अनुनासिकवर्णः अस्ति अतः डकारस्य स्थाने अनुनासिकः भवति षण् मुखः षण्मुखः अथवा षड्मुखः एवं यरः अनुनासिके परे इट्स फॉरवर्ड बाय अनुनासिका अनुनासिकः भवति इन द प्लेस ऑफ यर अनुनासिकः भवति वा विकल्पेन इति सूत्रस्य अर्थः Yaraha only include three vyanjanas. Yar means yava, rat, lan, nyamagananam, japhai, kha, tha, tha, chapakadadash, kha, pha, cha, tha, tha, chatatau, kapai, sha, sha, sar. All these are actually yar letters. So it includes many letters. But because of there are other sandhi rules, Since this is in Tripadi, we have to apply other rules in the beginning. Therefore, generally we get ja, va, ga, da, da at the end. Because if there is ja, then it becomes ja because of dhalam jashonte like that. There are many other rules applicable. Vak parivartanam. Aham, yeah, I think I mentioned that sutra previously. So it was vach in the beginning, and I mentioned that kutva rule, choho kuhu, previously. So by kutva, it becomes vak. Then in this example vak plus niyama so jalam jashonte there was a rule padante since it is at the end of pada the ka will be replaced with ga just letter so vach vak vag then since it is followed by anunasika the ga changes to nga And we studied these two rules previously. Here it is choho kuhu, and this is jalam jashonte. It is not listed as Maheshwara Sutra. No, kaharta. I didn't get this question. Yer is a pratyahara from ya to r. Yavarat. So I want to look. Evong ayoj ha yavarat. From ya to shashasar. So all letters. Vak niyamaha. तत्र प्रश्नः अस्ति वाक् नियमः इति अशुद्धं वा. वाक् भवितुं सो आफ्टर् चेञ्जिङ्ग् इट् टु क जलां दिशन्ते इस् आल्वेस् अप्लिकेबल्. जलां दिशन्ते इत्यस्य अन्वयः भवत्येव, अतः वाक् इत्यस्मात् वाग् भवति. पुनः गकारस्य ककारः अत्र केनापि सूत्रेण न भवति. टु चेञ्ज् द ग टु क देर् इस् नो रूल् नौ हियर् इन् दिस् एक्साम्पल् देर् इस् नो रूल्. अतः अत्र गकारः एव. सो वाक् नियमः इति दर्शयितुं न शक्यते. वाक् इति पदं भवितुमर्हति. ओन्लि वाक् इस् पासिबल् because there is another rule which we are studying idanim patamah. So there is kharicha and vavasane. Aham idanim pathayami tada itopi spashtam bhavati katham vak iti rupam siddhyati iti vadami. Kintu atra samasah asti, idam samasasya udaharanam. Atah asmin udaharane vak iti na bhavati, vag ityeva. पदान्ते य वर अस्ति चेत् अनुनासिकः कः भवति? यकारस्य अनुनासिकः वर्णः अस्ति. टु टैप्स् आफ् यकारस् आर् देर्, अनुनासिकयकारः अननुनासिकयकारः. य अपि अस्ति, य अनुनासिकयकारः अपि अस्ति. अतः यकारस्य स्थाने अनुनासिकः नाम अनुनासिकयकारः एव भवेत्. एवम् अनुनासिकः वकारः अपि अस्ति. अनुनासिक वकारद्वयमस्ति, अतः वकारः चेत् अनुनासिक वकारः भवितुमर्हति यदि उदाहरणम् अस्ति. रकारस्य तु नास्ति, रकारः अनुनासिकरकारः नास्ति. अतः यदि रकारः अस्ति तर्हि अस्य सूत्रस्य प्रवृत्तिः न भवति. रकारः वर्तते चेत् इदं सूत्रं न प्रवर्तते. यद्यपि यर् प्रत्याहारे रकारः अस्ति तथापि रकारः अस्ति चेत् एतस्य सूत्रस्य प्रवृत्तिः न भवति. फार् एक्साम्पल् चतुर्मुखः इति उदाहरणमस्ति. चतुर्मुखः लिखामि अधः. चतुर्मुखः इत्यत्र चतुर्रेफः अस्ति प्लस् मुखः. अत्र रेफात् परम् अनुनासिकः अस्ति, तथापि रेफस्य स्थाने अनुनासिकः न भवति. यतः रेफस्य कश्चन अनुनासिकवर्णः नास्ति, अनुनासिकरेफः नास्ति. अतः रेफस्य स्थाने अत्र कोऽपि आदेशः नास्ति, चतुर्मुखः इत्येव रूपम्. नमस्ते. अस्तु, अतः यद्यपि यर् प्रत्याहारे दो देर् इस् रेफ इन् यर् प्रत्याहार, इन् दिस् एक्साम्पल् दिस् सूत्र इस् नाट् अप्लिकेबल्. चतुर्मुखः वाच्. नमस्ते महोदय, वाच् वाक् भवति पदान्ते, अत्र परे झलि न तथापि. सो ऐ एम् गोयिङ्ग् टु एक्स्प्लेन् द रूल् हौ वाच् बिकम्स् वाक्. That is the thing is the next rule, then we will get more clarity. Tad param samyak jnayate. Agrima sutram tadeva asti, tad param anvayam kurmah, tada spashtam bhavati. अस्तु उदाहरणं वाग् नियमः किं भवति गकारस्य स्थाने कः वर्णः भवति अस्मिन् उदाहरणे उत्तमं रामनारायणजी अत्र गकारः अस्ति अतः गकारस्य स्थाने ङ द लास्ट् लेटर् आफ् कवर्ग गकार इस् इन् कवर्ग एण्ड् इट् विल् बि रिप्लेस्ड् वित् लास्ट् लेटर् आफ् कवर्ग इट् इस् ङकार अतः गकारस्य स्थाने ङकारः एव भवति नकारः न नकारः न भवति ङकारः एव किमर्थं ङकारः एव गकार ककारः कवर्गे अस्ति अतः ङकारः वाङ् नियमः अन्यत् अत्र किं तद् मङ्गलम् उत्तमं सदाशिवं जी दीप्तिजी उत्तमं बालसुब्रह्मण्यं जी सम्यक् रामनारायणजी उत्तमम् अत्र यस् दकारः अस्ति तस्मात् दकारस्य स्थाने नकारः सन्मङ्गलम् इति रूपम् उत्तमम् तस्मात् मम उत्तमं रामनारायणजी प्रसाद्जी सम्यक् दीप्तिजी वेङ्कटेश्वरञ्जी सम्यक् समानं पूर्ववत् लैक् प्रीवियस् वन् दकारस्य स्थाने नकारः तस्मान् मम तस्मान् मम मद् नगरी किं भवति यस् रामनारायणजी यस् सम्यक् वेङ्कटेश्वरजी सम्यक् दीप्तिजी सम्यकम्स् किं भवति मन्नगरि जस्ट् मन्नगरि मन्नगरि What happens when the pada ends with a sho, sho, so? There are other rules for sho, sho, etc. So, it depends which type of shakara it is, etc. So, you won't find this ananasika. Ananasika sandhi, you won't find if it is sho, sho, sho. तस्माद् नागरिकाः समानम् इस् आल्सो लैक् प्रीवियस् वन् तस्मान् नागरिकाः यस् उत्तमम् या इन् एर् प्रत्य क्वश्चन् रेप सो रेप शो शो सो आल् एते सर्वे वर्णाः यरप्रत्याहारे सन्ति किन्तु सर्वत्र अनुनासिकसन्धिः न भवति यद्यपि यरप्रत्याहारे अनेके वर्णाः सन्ति तथापि सर्वत्र सन्धिः न भवति तत्र अन्यानि सूत्राणि अपि प्रवर्तन्ते अथवा रेफः अस्ति चेत् तस्य अनुनासिकवर्णः नास्ति अतः सन्धिर्न भवति अन्यानि कारणानि सन्ति न भवति इति वक्तुम् दो इन् एरप्रत्याहारे दो इन् एरप्रत्याहार देर् आर् मेनि लेटर्स् इन् आल् प्लेसस् यु वोण्ट् फण्ड् अनुनासिक सन्ति सर्वत्र अन्यानि सूत्राणि प्रवर्तन्ते क्वचित् त्वग् मोचनम् अत्र किं भवति रूपम्? उत्तमं, रामनारायणजी, बालसुब्रह्मण्यजी, सम्यक्. या वेङ्कटेश्वरन्जी, सम्यक्. प्रसाद्जी, उत्तमम्. सो अत्र गकारः अस्ति, गकार कवर्गे अन्तर्भवति, अतः गकारस्य स्थाने ङकारः. त्वङ् मोचनं, गकारः कवर्गे अस्ति, अतः कवर्गस्य अन्तिमः वर्णः त्वङ् मोचनम् इति रूपम्. सम्राड् मनसि, सदाशिवं जी, उत्तमम्. अत्र कः वर्णः भवति? यस् दीप्तिजी, उत्तमम्. यस् रामनारायणजी, सम्यक्. बालसुब्रह्मण्यं जी, यस् प्रसाद्जी, उत्तमम्. सो अत्र डकारः अस्ति, डकारः टवर्गे अन्तर्भवति, तस्मात् डकारस्य स्थाने टवर्गस्य अन्तिमः वर्णः नकार. सम्राण्, सम्राण् मनसि. अनुनासिकयकारः वेदे भवति, वेदे न, अनुनासिकयकारः लोके अपि अस्ति. य अनुनासिकयकारः अस्ति, अनुनासिकवकारः अस्ति, अनुनासिकलकारः अस्ति, वेदे लोके उभयत्रापि अस्ति, संस्कृतभाषायाम् अस्ति. सो क्वश्चन्, अनुनासिकयकारः वेदे भवति, वेदे एव भवति वा, सामान्यरुक्तसंस्कृते अपि अस्ति वा इति प्रश्नः वर्तते. सो यकारः, वकारः, लकारः, य व ल, एते अनुनासिकयकारः अपि अस्ति, निरनुनासिकयकार विथौट् अनुनासिक और् वित् अनुनासिक, एवं वकारः अपि अस्ति, लकारः, त्रयः अपि अनुनासिकाः अपि सन्ति, निरनुनासिकाः अपि सन्ति, लोके अपि वर्तन्ते. विद्युद् नगरी किं भवति अत्र? यस् पूर्ववदेव, यस् स्वामिनारायण, स्वामिनाथन्जी, वेङ्कटेश्वरन्जी, दीप्तिजी, उत्तमं. सो दकारः अस्ति, अतः दकारस्य स्थाने नकारः. विद्युन्नगरी. जगद् नाथः, उत्तमं. रामनारायणजी, मुत्तुकृष्णन्जी, उत्तमं. प्रसाद्जी, दीप्तिजी, उत्तमम्. अतः दकारः अस्ति, दकारस्य स्थाने नकारः. जगन्नाथः, प्रश्नः वर्तते वा? वेङ्कटेश्वरन्जी, हस्तः उद्धृतः अस्ति.
नमस्ते.
अनुस्वार ओन्ली, बट् द वेदिक् प्रोनौन्सियेशन् इस् डिफ़्रेण्ट्. समटैम्स् इट् विल् बि प्रोनौन्स्ड् एस् ग् ओन्ली, समटैम्स् यु विल् फैण्ड् गुम् इफ् देर् इस् संयोग. इफ् इट् इस् फालोड् बै संयोग, देन् ओन्ली ग् इस् प्रोनौन्स्ड्. Otherwise, gum is pronounced. So there are different rules for that in Pratishakshya. And actually, it is anuswara. But the, in Vedic tradition, it is pronounced as gum or gu, like that.
Okay,
Then, षड् मुखः. यस् मीनलोचनजी, उत्तमं. या सौम्याजि उत्तमं सम्यक्. सो षण्मुखः डकारः अस्ति, अतः डकारस्य स्थाने नकार षण्मुखः. तद् नयनम् पूर्ववदेव, अत्र दकारः अस्ति अतः नकारः तन्नयनम् समानम्. एकं निमिषम्. देन् यद् मण्डलं, सो समानं पूर्ववदेव, दकारः अस्ति अतः यन् मण्डलम्. In all these examples, nakara. Sakrid nashtam. So, again it is the same. Yes, Ramanarayan Jyotam, Balasubramanian ji. Swaminathan ji. So, dakaras yasthane nakara. In all these examples, sakran nashtam. Sakran nashtam. Jagad niyamakaha. Atrapi. Samanam, yes, Ramanaranji, Balasubramanianji, Uttamam. So, here also, Dakarasya Sthane Nakaraha Jagan Niyamakaha Mathulid Namati. Atra Uttamam, Diptiji. Yes, Minalochaniji, Samyak Venkateswaranji. Ramanaranji, Uttamam. सो अत्र डकारः अस्ति अतः डकारस्य स्थाने नकारः भवति, किन्तु हियर् इस् स्टुनाष्टुः स्टुत्वा रूल् इस् नाट् अप्लिकेबल्. दो देर् इस् नकार एण्ड् टवर्ग द प्रीवियस् क्लास् वि स्टडीड् स्टुनाष्टुः स्तोः इस् टवर्ग स्तोः ष्टुनायोगे टवर्गः अस्ति अत्र स्तोः ष्टुनायोगे ष्टुः भवति. बट् ऐ मेन्शन् देर् आर् सम् एक्सेप्शन्स् टु दिस् रूल्. हियर् एक्सेप्शन् इस् अप्लिकेबल् न पदान्ता टोरनाम् इफ् पदान्ता टवर्ग इफ् टवर्ग टवर्गः यदि पदान्ते अस्ति तर्हि टवर्गस्य ष्टुत्वं न भवति. अत्र डकारः पदान्ते अस्ति अतः ष्टुत्वं न भवति, नकारस्य ष्टुत्वं न भवति, नकारः एव. एवञ्च मथुलिण् नमति, मथुलिण् नमति इत्येव, मथुलिण् नमति इति रूपं न भवति. ष्टुत्व रूल् इस् नाट् अप्लिकेबल्. यस् गुणवन् नायकः यस्मिन् लोचने उत्तमम् अस्तु. या दिग् मध्ये किं भवति, या दिग् मध्ये उत्तमं. वाट् इस् द आन्सर् हियर्? द आन्सर् इस् रैट् हियर् मधु. सो इट् इस् मधु लिण् नमति ओन्ली. सिन्स् ष्टुत्वा इस् नाट् अप्लिकेबल्, नकारस्य स्थाने अन्यः आदेशः नास्ति, मथुलिन् नमति इत्येव. ष्टुत्वा इस् नाट् अप्लैड्, तत्र ष्टुत्वं नास्ति, मथुलिन् नमति. ओके. अस्तु इदानीं. सो या दीस् टु आर् इम्पार्टेण्ट् रूल्स्. खरित एण्ड् वावसाने चर्त्वम् अत्र गत इन् द लास्ट् वेन् ऐ वास् एक्स्प्लेन् द लास्ट् सूत्र. सो सम् आफ् यू आस्क्ड् अबौट् तकार, हौ वाच् बिकेम् वाक्. सो वाक् भवितुम् अनयोः सूत्रयोः अन्वयः अपेक्षितः, खरित वावसाने. आभ्यां सूत्राभ्यां चकारः भवति. सूत्रं सूत्रस्य अर्थं पश्यामः. खरि च अत्र यस् प्रश्नः अस्ति वा जन अय्यर् जि एकं निमिषं हस्तः उद्धृतः अस्ति. यस् प्रश्नः अस्ति वा?
हा अस्ति अस्ति. यमकाः अर्थं न जानामि तत् कारणात्.
कस्य?
नियमकः.
नियामकः इत्यस्य अर्थः जगन्नियामकः
इत्यर्थः.
सो जगत् इत्यस्य विश्वम् इत्यर्थः. नियामकः यः नियमनं करोति. नियम इति पदं जानाति?
जानाति.
सो यः नियमं करोति सः नियामकः, परमात्मा. सः जगन्नियामकः.
धन्यवादः महोदय.
अस्तु, धन्यवादः. नियमयति नियामकः. इदानीम् अत्र खरि च इति सूत्रमस्ति. खरि सप्तमी, जलां षष्ठी बहुवचनं, चरः इति प्रथमाविभक्ति बहुवचनं. There is one more question. What is Madhu Lid? I think you know Madhu. Matra Ledhi. Ledhi nama kim vadami angla bhasha to swallow, I think. So that is the lat form of lih. Dhatu is lih, and in latlakar, yes, Ramanand Yutam, to lick, yeah, dhanyavad. So it is ledhi to lick. Atah lih is a dhatu, and in latlakara it becomes ledhi. So Madhu ledhi. So who licks Madhu? He is Madhu lick, Madhu lit, or Madhu lid. Yes, Sadashivam ji. Honey liquor. Yeah, this is the translation. Then, atom. So, yeah. Agre, khari cha jalam charaha. So, Madhulid. Okay, again, what is the meaning of Madhulid namati? Now, we know what is Madhulid. Honey liquor. Namati. नमस्कारं करोति. नमति इत्यस्य अर्थः नमस्कारं करोति. मथुलिट् नमस्कारं करोति इत्यर्थः. अन्यस्मै नमस्कारं करोति. सो मथुलिट् केन् बि अ बाल. कश्चन बालः भवितुमर्हति, सः नमस्कारं करोति इति. अस्तु, अत्र इदानीं खरि च जलं. हनी लिक्कर् नमस्कारं करोति. सत्यं, हनी लिक्कर् डस् नमस्कार. इदानीं खरि च जलां चरः. जलां षष्ठी इत्युक्तं मया. जलां स्थाने चरः भवन्ति, खरि परे. अत्र पश्यन्तु, जलां स्थाने षष्ठी, चरः भवन्ति, खरि परे इति सूत्रस्य अर्थः. उदाहरण अत्र चित्रं दत्तं. यद्यपि अत्रापि झल् इत्यनेन अनेके वर्णाः गृह्यन्ते, अत्र उदाहरणं सामान्यतः एतेषां वर्णानाम् अस्ति, अतः एते वर्णाः स्वीकृताः. झलां ज ब ग ड द एते प्रसिद्धाः वर्णाः. झलां चरः भवन्ति, तर् अर्थात् तत् तस्य वर्गस्य प्रथमः वर्णः क च ट त प वर्ग प्रथमः सः अत्र चर् इति पदेन गृह्यते जलां स्थाने चरः भवन्ति खरिपरे वर्ग प्रथमः वर्गद्वितीयः क प च ट त वर्गस्य प्रथमः वर्णः ख प च ट त वर्गद्वितीयः पुनः ष ष स कर् प्रत्याहारे अन्तर्भवन्ति एवञ्च जलां स्थाने चरः भवन्ति खरिपरे इति सूत्रस्य अर्थः उदाहरणार्थम् अस्मद् पुत्रः अत्र पकारः दकारः वर्तते दकारात् परं पकारः अस्ति पकारः खर्वर्णः तस्मात् दकारस्य स्थाने तकारः अस्मत् पुत्रः एवं षड् खाद्यानि अत्र डकारः वर्तते डकारात् परं खकारः अस्ति खकारः अपि खर्वर्णे अन्तर्भवति तस्मात् डकारस्य स्थाने वर्गप्रथमः द फस्ट् लेटर् आफ् दट् वर्ग दट् इस् टकार अतः षट् खाद्यानि अनन्तरं अन्यानि उदाहरणानि उद् पतति किं भवति यस् यस् सदाशिवजी बालसुब्रह्मण्यंजी सम्यक् वेङ्कटेश्वरञ्जी तु दकारस्य स्थाने तकारः भवति बिकम्स् द फस्ट् लेटर् आफ् दट् वर्ग दकार इस् इन् तवर्ग द फस्ट् लेटर् आफ् तवर्ग इस् तकार ओन्लि अतः उत्पतति तादृग् कर्म उत्तमं वेङ्कटेश्वरञ्जी यस् यस् पर्वतनाथञ्जी उत्तमं सो अत्र गकारः अस्ति द फस्ट् लेटर् आफ् कवर् क ग्रूप् इस् ककारः अतः तादृक्कर्म एतद् पार्श्वम् यस् उत्तमं दीप्तिजी उत्तमं मीनवचनजी उत्तमं बालसुब्रह्मण्यजी सम्यक् रामदायणजी सो अत्रापि दकारः अस्ति अतः दकारस्य स्थाने तकारः एतत् पार्श्वं तरति सो अत्रापि तत् तरति तत् सो इन् आल् दीस् एक्साम्पल्स् यु केन् सी वर्ग प्रथमः अस्ति इट् केन् बि वर्ग प्रथम वर्ग द्वितीय अत्र पकार इस् फस्ट् लेटर् आफ् पवर्ग कवर् फस्ट् लेटर् आफ् कवर्ग फस्ट् लेटर् आफ् पवर्ग फस्ट् लेटर् आफ् कवर्ग एवं वर्गद्वितीयः वर्णः अपि भवितुमर्हति तदा पूर्वस्य स्थाने वर्गप्रथमः आदिश्यते एतद् कथय यस् उत्तमं सौम्यरमन्जी मीनलोचनजी उत्तमं बालसुब्रह्मण्यजी उत्तमं दीप्तिजी उत्तमं सो एतत् कथय अत्र राजारामजी प्रश्नः वर्तते किम् एकनिमिषं म्यूटेड् इदानीं वदतु
नमस्ते महोदय अत्र चर् इति अस्ति तद् चै एव न अत्र शशस न योजितमस्ति खलु कचट त प एव अस्ति
अत्र वर्गीयव्यञ्जनं चेत् तदा तद्वर्गस्य वर्णः एव आदिष्टः भवति यतः सर्वदा आदेशः कथं भवति इति चेत् साम्यं भवेत् साम्यं तद्वर्गस्य व्यञ्जनं चेदेव साम्यमस्ति. तत्र सूत्रम् वर्तते स्थाने अन्तरतमः, अन्तरतमः इत्यस्य सदृशतमः इत्यर्थः. एवञ्च कः आदिष्टः भवति? सदृशतमः आदिष्टः भवति. दकारस्य स्थानं किम् इति चेत् अकुहविसर्जनीयानां कण्ठः इत्येवं स्थानानि वर्तन्ते. उदाहरणार्थं पूर्वं गकारः चेत् कण्ठस्थानम्, एवं ककारस्यापि कण्ठः स्थानम्. अतः गकारस्य स्थाने ककारः. अन्ये वर्णाः चेत् एतादृश साम्यं न भवति.
परन्तु अत्र तु सूत्रे चरः अस्ति, चै एव वयम् आदे इदानीं स्वीकुर्मः खलु. शाशासा तु न भवति,
तेषां
एतद् न भवति खलु. सो चै एव भवति, तद्
चै. पुनः प्रश्नः भवितुमर्हति, किमर्थं तर्हि तत् चर् इति पदं प्रयुक्तम् इति चेत्, वस्तुतः अस्मिन् सूत्रे तत् पदं नास्ति, अनुवृत्तमस्ति. अतः अन्यस्मिन् स्थाने तस्य प्रयोजनं भवितुमर्हति. अनुवृत्तिः खलु, अतः अत्रैव प्रयोजनं भवेत् इति नास्ति, अन्यत्र अपि प्रयोजनं भवितुमर्हति. अस्मिन् सूत्रे तस्य प्रयोजनं नास्ति. एवं
धन्यवादः.
ओके. तद् ते पूर्वदेव लैक् सो दकारस्य स्थाने तकारः, तत् ते. उत्तमं. तत्ते तत्ते पदं सङ्ग्रहेण प्रवक्ष्याम्योमित्येतत् इति उपनिषदि अपि एतादृशप्रयोगाः सन्ति. तत्ते एतद् तु उत्तमं. जनकीजि उत्तमं, कामाक्षीजि उत्तमं, बरसुब्रह्मण्यजि. सो एतद् तु एतत्तु कियद् तम् उत्तमं कियत्तम् सर्वत्र अपि यद्यपि अत्र पूर्वं तकारः आसीत् कियत् पूर्वं तकारः आसीत् किन्तु सिन्स् दिस् झलां जशोन्ते सूत्रं पूर्वमस्ति, अतः सर्वदापि झलां जशोन्ते इत्यस्य प्रवृत्तिः भवति. तस्मात् तृतीयः वर्णः एव दृश्यते, कदापि प्रथमः वर्णः नागच्छति. किमर्थं? झलां जशोन्ते पदान्ते झलां जस्वर्णः अर्थात् तृतीयः वर्णः भवति. अतः कियत् इति आसीत्, कियद् इत्यभवत्, पुनः अनेन सूत्रेण कियत् इति तकारः भवति. एवम् अत्र त्रिपाद्याम् अस्ति इति कारणात् एवं क्रमेण एव सूत्राणां प्रवृत्तिः. तावद् कार्यम् यस्. उत्तमम्. सो अत्रापि दकारः अस्ति, अतः तकारः तावत् कार्यं. युगपद् करोति, अत्रापि दकारः एव अस्ति, अतः दकारस्य स्थाने तकारः. उत्तमं दीप्तिजी उत्तमं. सो युगपत् करोति. वेद् तव्यम्, अत्र यस् उत्तमं. तकारः विद् धातु एण्ड् तव्य प्रत्यय. अनन्तरं वेद् इति भवति, तत्र गुणः भवति. वेद् तव्यं, वेत्तव्यं. वेङ्कटेश्वरन्जी प्रश्नः अस्ति.
Which one? you told tavat kiyatam. Sometimes kiyat or ta becomes da by another root. So
yes,
which
yes.
one?
See, yeah, all these rules are in Tripadi. Mm. So though the original word has takara at the end, we have to see the order. Mm. Astadhyayi order. So the first rule in Astadhyayi is jalam jasonte. So therefore, we have to apply jalam jasonte first, then it becomes dakara. Then this kharicha is after jalam jasonte. Then if the conditions are met, then again we have to apply kharicha, then it becomes takara only. Jalam jasonte is applicable, kharicha is also applicable if conditions are met. Yadi asti tarhi bhavateva. Kintu we have to follow the Astadhyayi order while applying these rules, because all these rules are in Tripadi. Tripadyam santi. Atah pratham jalam jasonte ityasya anvayah, tatah param kharicha ityasya anvayah.
Asti? Thank you.
Okay. Yeah. Yeah. Then same vedta samanam puravadeva vetta vidhatuh vetta. Etad tasya atrapi same etat tasya tad again so same. Tad tasmat, tat tasmat, tat tasmat. Mahad karyam, kim bhavati? Uttam. Yelochanidhi Uttam. Ramanarandhi, Diptiji. So, atra dakarasya sthane takaraha mahat karyam. Apad kalaha, kim bhavati? Apat kalaha. उद खननम अत्र किं भवति खकारः परे अस्ति सम्यक् बालसुब्रह्मण्यजी दीप्तिजी उत्तमम् रामनारायणजी सो दकारस्य स्थाने तकारः उत्खननम् तस्माद् करोति उत्तमं दकारस्य स्थाने तकारः तस्मात् करोति. Idanim, so regarding this watch previously, idanim vayam drashtum shaknumah. Now we can see that where was that? Vag niyamah. See, in this example, atara nakarah asti. Nakarah varga panchamah. It's not vargasya prathamah varnah apina, dvitiyah varnah apina. Ataha gakarasya sthane kakarah na bhavati. Vak niyamah iti atra na bhavati. Vag niyamah iteva. Atra niyamasya anvayah nasti. Another tekam sutram asti. One more sutra is there, but that is also not applicable. Tadapi vavasane tekam sutram asti. Kharicha vavasane. Sutra dvayam asti. Kharicha ityasya anvayah na bhavati. Kimartham nakarah kharvarane. Karvarnesha nasti. Vavasane ityasyapi anvayah na bhavati. Idanim artham vadami. Atra avasanam nasti. Ataha vavasane ityasyapi anvayah na bhavati. Tasmat gakarasya sthane kakarah astmin udaharane na bhavati. Astu? Atra dutiyam sutram kharicha, next sutra is vavasane. Dutiyam sutram asti. Tasya udaharanam vavasane. Va avasane. Atra vibhagaha vartate. Va ityekam padam. Avasane ityanyat padam. Jalam ityapyanu vartate. Charaha ityapyanu vartate. Jalam iti shashti. Char iti prathama. Avasane iti saptami va vikalpena ityartha. Ivanta jalam sthane charaha bhavanti अवसाने अवसाने अवसानमिति संज्ञा अवसानं नाम वर्णानाम् अभावः अवसानमिति कथ्यते अवसाने परे जलां स्थाने चरः भवन्ति विकल्पेन इति सूत्रस्य अर्थः जलां स्थाने चरः भवन्ति अवसाने परे अवसाने अर्थात् वर्णानाम् अभावः अवसानं तस्मिन् परे वा विकल्पेन इति सूत्रार्थः पूर्वदेव ज ब ग ड द एते वर्णाः यदि अवसाने नाम यदि एतेभ्यः परं यदि कश्चन वर्णः नास्ति तर्हि च वर्गस्य प्रथमवर्णाः विकल्पेन भवन्ति उदाहरणार्थं वाग् अत्र भवितुमर्हति वाग् वाक् वाग् प्रथमाविभक्ति एकवचन आफ् वाच् शब्द किं भवति वाक् वाग् इति रूपम् इन् प्रथमाविभक्ति एकवचन आफ् वाच् शब्द यु विल् फैण्ड् दीस् टु फार्म्स् वाक् आर् वाग् किमर्थं रूपद्वयमस्ति अत्र वा अवसाने विकल्पेन विकल्पेन चर्वर्णः भवति एवञ्च इट् वास् एक्चुलि लैक् दिस् सो विल् रैट् हियर् वाच् वाच् इति प्रातिपदिकं प्रातिपदिक इस् टु विच् वि एड् सुप्रत्यय दिस् इस् काल्ड् प्रातिपदिक वाच् वच् धातुः वच परिभाषणे इति धातुः तत्र कानिचन सूत्राणि प्रवर्तन्ते अतः मकृत् प्रत्ययः भवति अतः वाच् इति जातं ततः परं पूर्वमस्माभिः सूत्रं पठितं चोः कुः इति तेन सूत्रेण वाच् इत्यत्र चकारस्य स्थाने ककारः वाक् ततः जलां जशोन्ते इति सूत्रेण विच् वि स्टडीड् प्रीवियस्लि अत्र ककारस्य स्थाने गकारः वाक् ततः परम् इदानीम् अवसाने अवसानः वर्णानाम् अभावः कोऽपि वर्णः नास्ति गकारात् परम् अतः अवसाने परे गकारस्य स्थाने चर्वर्णः भवति विकल्पेन विकल्पेन इति कारणात् गकारस्य स्थाने ककारः विकल्पेन भवति एवञ्च वाक् अथवा वाग् इति रूपद्वयम् एवम् आदौ चकारः आसीत् ततः परं ककारः चोः कुः ततः परं जलां जशोन्ते ततः परं वावसाने इत्यनेन रूपद्वयम् अतः प्रथमा विभक्ति एकवचन एक्चुलि देर् इस् ऐ डिडन्ट् मेन्शन् अबौट् सुप्रत्यय एण्ड् एक्चुलि सुप्रत्ययः बिकास् इट् इस् प्रथमा विभक्ति एकवचन फार्म् सुप्रत्ययः भवति तस्य लोपः भवति सिन्स् वि डिडन्ट् डिस्कस् अबौट् सुबन्तस् अहं न उक्तवान् तस्य विषये एक्चुलि देर् इस् सुप्रत्यय अस्तु यस् प्रश्नः अस्ति डु वि अप्लै जस्त्व एण्ड् देन् दिस् रूल् यस् बिकास् जलां दशोन्ते अष्टाध्याय्यां पूर्वमस्ति सो वावसाने इस् 8456 तस्मात् पूर्वमेव जलां दशोन्ते अस्ति अष्टाध्याय आर्डर् देर्फोर् प्रथमं जलां दशोन्ते ततः परमेव वावसाने साक्षात् अन्वय वावसाने इत्यस्य अन्वयः न भवति पूर्वं जलां दशोन्ते भवति ततः परं वावसाने इत्यस्य अन्वयः भवति अष्टाध्यायीक्रमम् अनुसृत्य अन्वयः करणीयः सूत्राणाम् अन्यः प्रश्नः अस्ति अत्र वेन् इट् ईस् विकल्पेन बोत् द फार्म्स् आर् इण्टर्चेञ्जेबल् आल्वेस् रैट् सत्यम् इफ् इट् ईस् विकल्पेन तदा उभयोः यत्किञ्चित् रूपं प्रयोक्तुं शक्यते उभयमपि साधु जलमुत् जलमुक् उत्तमम् अत्र जलमुच् जलमुक् इति वस्तुतः न भवति बिकम्स् जलमुक् आर् जलमुग् इति रूपद्वयम् अहम् अत्र वन् मोर् एक्साम्पल् इस् given jalamuch saman gave this example. So jalamuch samanam, jalamuch, then jalamuk, jalamug, jalamuk or jalamug, then rupadvayam bhavitvarati. Yeah, vanik, vanig, uttamam. Sammek. Panchami vibhakti, in the fifth case of Rama Shabda, Ramat. Kin tatra api rupadvayam bhavitvarati. Ramat or Ramad. Rupadvayam api asti. Kimartham avasanam, avasane asti. Ataha vikalpena dakarasya sthane takaraha. Ramat, Ramad. Jalamuch megha ityartha satyam. Jalamuch ityasya megha ityartha. Astu anyani kanichana udaharanani darshayami. Shad kim bhavati avasane rupadvayam. Yes, samrat samrat ityapi bhavati. Yeah. Atra shad asti chet rupadvayam. Uttamam Tamanaranji, Uttamam Balasubramanyamji. So atra takaraha dakaraha shat shad iti rupadvayam. Prag the gakaraha asti atra kastana prashna asti dish dik bhavati parantu etasmat sutrat nakhalu dish shakarasya sthane kavargasya varnaha katham bhavati iti saha anyaha vicharaha kintu dik dig iti rupadvayam anena sutreneva bhavati dig iti siddhyati tadaparam vavasane itena dik dig iti rupadvayam kintu shakarasya katham gakarah agataha tatra sutram asti anyat sutram asti tat idam sutram na vavasane sutram na tad atra dakarah asti ataha vikalpena takarah bhavitum arhati uttamam tat tad etad puravadeva uttamam prasadji diptiji. So etad etat etad gunavad atrapi puravat dakarah asti ataha gunavat gunavad samrad uttamam Balasubramanyamji, Ramanaranji, Diptiji uttamam. So samrat samrad mahad dakaraha ataha mahat mahad kiyad again samanam kiyat kiyad dakarasti tavad atrapi dakarasti ataha tavat tavad samanamasti udaharanam etavad etavat etavad vag darshitam vak vag rad atra kim bhavati dakarasti uttam janaki ji uttamam Ramanaranji, Dipti Jutam, Dakaras, Dakarasti, at the Vikalpena, Takara Bhavati, Rat, Rad, Jagatrid, Jagatrid, Sahajagatrid, Puravadeva, Jagatrid, Jagatrid, Twag, Charma Itertaha, Twag Nama, Utam, Danakiji, yes, Ramanaranji, Dipti Jutam, Twak, Twag. Grihad panchami bhaktihi graham ityasya uttamam yes takaraha takaraha grihad grihad akashad uttamam आकाशात्. अत्र प्रश्नः अस्ति वा? जनार्जि
राड् तस्य अर्थः
राट् इत्यनेन राजा
राजा ओके
एवमेवं सत्यं सृजति यः जगत् सृजति सः जगत् सृड् परमात्मा स्यात्
धन्यवादः
अस्तु here third letter of each varna is replaced with first letter. Any condition, what should follow? Just atra in this, in all these examples, avasana, avasane chet. Avasana means it should not be followed by any letter. Avasana varnanam abhava avasanam tada eva etesham niyamanam anvayah. Yadi kashchan varnah asti tarhi tam varnam avalambya sutranam pravartih bhavati. यदि कश्चन वर्णः नास्ति तर्हि वावसाने इत्यनेन विकल्पेन चर्वर्णः प्रवर्तते इति. अस्तु, परन्तु आकाशात् पतितम् अत्र आकाशात् पतितम् अत्र पकारः अस्ति, तकारात् परं पकारः अस्ति, अतः खरित इत्यस्य अन्वयः भवति. खरिपरे चलाञ्चरः, अतः विकल्पेन अत्र दकारः न भवति. आकाशात् पतितम् इत्येव, आकाशात् पतितम् इति न भवति. यदि आकाशात् इति विभज्य वदति आकाशात् पतितम् इति तदा भवितुमर्हति. किन्तु आकाशात् पतितं तोयम् इति कथनकाले तु अत्र संहिता अस्ति, वर्णानां सामीप्यमस्ति, तस्मात् अवसानं नास्ति. अवसानं नास्ति चेत् वावसाने इत्यस्य प्रवृत्तिः अपि नास्ति. अतः खरीच इत्यनेन दकारस्य स्थाने तकारः भवति. आकाशात् पतितं तोयम् इत्येव प्रयोगः. अस्तु, यदि अवसानम् अस्ति तर्हि दकारः भवितुमर्हति विकल्पेन. अस्तु, तर्हि समयः अभूत्. अत्र समापयामः. इतोपि केचन अंशाः सन्ति, अग्रिमपाठे पश्यामः. अत्र समापयिष्यामि. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्. अस्तु, पुनर्मिलामः.